अथ तृतीयः सर्गः। प्रहस्तकुम्भकर्णादिराक्षसानां गृहे गृहे सविमृग्य सरोजाक्षीं रावणान्तःपुरञ्ययौ वाहरत्नैर्वधूरत्नैरत्नैर्वासो विभूषणैः आश्चर्यरत्नैः सर्वैश्च सम्पूर्णं पुरमैक्षत। यानि यानि वरीयांसि वस्तूनि भुवनत्रये तानि तान्युपनीतानि रक्षसैक्षतमारुतिः। अन्तःपुरान्तरे पश्यत् केवलं रावणालयम् अर्धयोजनविस्तारं सार्धयोजनमायतम्। मणिहेममये तस्मिन् भवने भुवनाद्भुते दीप्तं विमानमाचष्ट स ज्योतिरिव तेजसि। मणिश्रेणिश्रिया गौरे पुष्पके पुरुषर्षभः अपश्यद्रावणं सुप्तं शशिबिम्बे शशंयथा। परिवार्यपतिं वीरं शयानं शयनोत्तमे सहस्रं वरनारीणां तत्र सर्वाङ्गसुन्दरम्। विमृग्य सुचिरं पीत्वा मदिरां मदिरेक्षणाः कान्तारतिपरिश्रान्ता शेरते स्मात्ति निद्रया। स्त्रीरत्नमालावलये तस्मिन् रुचिररोचुषि महानीलमणिश्यामो रावणो नायकायितः। हन्तसोऽयं खल इति प्रैक्षतैनं स मारुतिः विकस्वराभ्यां नेत्राभ्यामुपसृत्या कुतो भयः। वज्रपाताङ्कितौ तस्य भुजगेन्द्रोपमौ भुजौ रक्तचन्दनसंसिक्तौ पर्यङ्के परिसारितौ देदीप्यमानेराकल्पैस्तद्देहे माशमेचके। नीलाम्बुदतटित् प्रख्येर्दीपदीप्तिरजीयत। अतिप्रमाणप्राणस्य घ्राणोत्थाश्वासवायवः दीपानशमयाञ्चक्रुर्व्यक्तं मणिमयत्वतः। विलोक्येवं विधाकारं सुप्तं तं तदुपान्तिके मण्डोदरीमथा पश्यत् कान्तामन्तःपुरेश्वरीं। किं देवी दानवी किं वा कान्वेषा कामवल्लरी इत्याशङ्क्यनसीतेति तार्किकः समतर्कयत्। सहस्रशः सभप्रेष्ठैः पानभूमिमुपेयुषीः ददर्श दर्शनीयाङ्गीरङ्गनाः सप्लवङ्गमः। बभोपानस्थलं रूप्य चषकाणां शतान्वितं तस्योपमापदं स्याच्चेच्छतचन्द्रं नभस्थलम्। यत्र यत्र विलासिन्यो विलासं विपुलं दधुः हरिः स तत्र त्रागाद्रामसेवैकभूषणः। गृहोर्ध्वगृहसौधेषु प्रकोष्ठे वल्लभीषु च चैत्यचत्वररथ्यासु विचिक्ये छलजानकीं। क्वचिद्वारं विवृण्वानः क्वचिच्च विवृतं विशन् क्वचिज्जालान्तरेणैव प्राविशत् प्राणनन्दनः। अवाप्यवापीनन्विष्यन् देवालयलतालयान् जलाशयांश्च विविधांश्च चारासङ्गमो हरिः। बहिरन्तश्च विचरन् वायुवद्वायुनन्दनः। चतुरङ्गुलमात्रं च पुर्यां न व्यचिनोन्नहि। चिन्तयामास हनुमान्न दृष्ट्वा जानकीतनुं मया न दृष्टा सा देवी कार्यं सकलमाकुलम्। नागाङ्गनानाकनारिर्नगर्या राक्षसीरपि अद्राक्षं यास्ववस्थासुता न हन्तस भोचिताः नावस्त्रास्त्रिय ईक्षेत ब्रह्मचारी विशेषतः इति शास्त्रगतिं नाहमद्राक्षं कार्यगौरवात् लवणाब्धिर्वृथातीर्णो न कार्याब्धिर्महानयम् नानानार्यो वृथा दृष्टा रामनारीनहाबत मम त्वसङ्गमनसो न दोषो विषये क्षणात् विषयेर्न हि लेपोऽस्ति वह्निवायुविवस्वताम् यन्न देवी मया दृष्टा सङ्कटः स हि नापरः तामदृष्ट्वा कपीन् प्राप्य किं नु वक्ष्यामि षण्डवत् सीता न दृष्टेति कथं वक्ष्ये सम्बन्ध्य राघवम् अवेक्षिष्ये कथं तस्य पूर्णचन्द्रोपमं मुखम् सीता क्वापि न दृष्टेति वचनं विषमं विषम् नरेन्द्रवानरेन्द्राणां कुलयोर्विलयप्रदम् सर्वं विक्रमजालं हि निष्फलं हीन्द्रजालवत् देवीमपश्यतो यद्वल्लालित्यं फेन सम्पदः मुष्टिघातेर्दुराचारं रावणं मारयामि वा अथवा पशुवद्बद्ध्वा रामपार्श्वं नयामि वा अशोकवनिकां यायामशोकवनितां वराम् अथाप्यहं विचेष्यामि स्याद्यत्नः सफलो यतः नमोऽस्तु राम रामायै रामायापि नमो नमः भूम्ने सर्वान्तरायापि सर्वसिद्धिप्रदायिने इत्यालोच्य विविच्यासौ कार्यं निर्धार्य वीर्यवान् अशोकवनिकां प्रायात् सर्वर्तुफलपुष्पिणीम् अशोकरोचिषाशोणं वनमैक्षतवानरः पद्मरागैरिवाकीर्णं हरितोपलपर्वतम् नदीत्रिकूटात् पतितावनमध्यं व्यराजयत् रम्यं सीमन्तसीमेव सीमन्तिन्याशिरोरुहम् भवने पवनस्याथ वने पवननन्दनः विजहार यथा कामं प्लवमान इतस्ततः काञ्चनीनां च वल्लीनां काञ्चनानां च शाखिनां समभ्यनन्दत्संयोगं दम्पतीनामिव प्रभुः चैत्रं चैत्ररथस्येदं कान्त्यानन्दननन्दनं मणिहेममयं सर्वमुद्यानं ससमैक्षत वने तुच्छेतरच्छाये ददर्श पवनात्मजः शिंशपां काञ्चनमयीं मेघे सौदामिनीमिव तत्र प्रवालसोपानं चैत्ये प्रासादमद्भुतं सहस्रस्तम्भं प्रैक्षिष्टश्रीमत्कनकवेदिकम् इमां नदीं शिवजलां शिवच्छायां च शिंशुपां सा तन्वी सेवते नूनमित्यमन्यतमारुतिः तस्य एकतमां शाखां शाखामृगपतिशनैः आरुह्य संवृतः पर्णैर्ददर्श स दिशो दश तत्र दीनामिवादीनां मलिनामिव चामलाम् कृशामि वोपवासेन ह्यकृशां प्रकृतिं श्रियः फुल्लपद्मपलाशाक्षीं पूर्णचन्द्रनिभाननां निस्तप्तस्वर्णवर्णाङ्गीं साक्षात् सर्वाङ्गसुन्दरीं आलम्बिनीं केशवेणीं कृत्वा जघनमण्डले आसीनामवनी पृष्ठे सन्ततास्त्राम्बुसन्ततिं हन्तेकवसनां कैश्चिद्भूषितां भूषणैरपि मारुतिशिंशुपामूले माया सीतामवैक्षत राक्षसारेः प्रियां भार्यां राक्षसीगणमध्यगां मृगीमिव श्वगणगां दृष्ट्वा चिन्तामवापसः रामदेवस्य देवीयं व्यक्तमायतलोचना ईदृशं लक्षणं तेन कीर्तितं पुण्यकीर्तिना ह्रियमाणा मया दृष्टा सेयमेवेति भाति मे तस्योत्तरीयस्य सममुत्तरीयमिदं ध्रुवं कथं विश्वेश्वरी सीता स्वयं विश्वेश्वरप्रिया दुःखिनीति महाचोद्यं प्रतिभा मे निरस्यति अनुकुर्वाणयोर्लोकान् देवदेव्योरदीनयोः दुःखमोहादिका मिथ्या नटनट्योरिवध्रुवम् मायामयीमिमां सृष्ट्वा सीता प्रतिकृतिं निजाम् स्वयमन्तर्हिता व्यक्तमित्थं मे प्रतिभाशुभा मनसा विमृशन्नेवं मरुतस्तनुजो मुहुः आस्ते पर्णैर्निलीनात्मा कृशानुरिव भस्मभिः चित्तं बभौ स्फुरति रामपदारविन्दे नेत्रं रमा प्रतिकृतेश्चरणारविन्दे कोपोदयो हनुमतो दशवक्त्रसैन्ये प्रेमोदयः सपदि वानरराजसैन्ये इति श्रीसङ्ग्रहरामायणे सुन्दरकाण्डे रामाङ्के तृतीयः सर्गः।